गीता श्रीधर
नमस्कारः भगिनी,
अत्र वक्तुं शक्यते वा आरम्भश्लोकं जानाति वा? एनाक्षरसमाम्नाय
एनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन द्योता येन द्यौत्यागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ओम्
अस्तु धन्यवादः अस्माकं
व्याकरण
अस्माकं व्याकरणवर्गे स्वागतम्.
नमस्ते.
इदानीं पूर्वं वयं दृष्टवन्तः किं किम् अभवत् इति. अनुदातनित आत्मनेपदं स्वरितनित कर्तरि अभिप्राये क्रियाफले अनन्तरं शेषात् कर्तरिपदम्. यत्र यत्र अनुदातः भवति यत्र परस्मैपदिनः यत्र यत् स्थाने अत्र उभयपदिनः भवन्ति इति वयं दृष्टवन्तः. अनन्तरम् अत्र तिङ्गस्त्रीणि त्रीणि इत्यनेन प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः कुत्र भवति, अनन्तरम् एकवचनं द्विवचनं बहुवचनं कुत्र भवति इति वयं दृष्टवन्तः. अनन्तरं युष्मद् उपपदे युष्मद् यत्र अस्ति, यः पुरतः तिष्ठति सः एव त्वम् इति वक्तुं शक्यते. त्वं कार्यं करोषि, त्वम् एतत् कार्यं करोतु करोषि, एतत् पुरतः अस्ति खलु, एतत् युष्मद्. अस्मद् अहमावां वयम् अहम् एतत् कार्यं करोमि, उत्तमपुरुषः एकवचनम्. अनन्तरं शेषे प्रथमः शेषे प्रथमः इति सः कार्यं करोति, सः तिष्ठति, सः खादति, तत्र सर्वत्र प्रथम शेषे प्रथमा भवति. अनन्तरं भूयोः लट् अत्र भेदः कुत्र भवन्ति चेत् भूयोः लट् अत्र तिप् भवति, भूयोः लट् तिप् भवति अतः तत्र भवति इति भवति. भूयोः लङ् भवति अत्र भूयोः तिप् अत्र लङ्स्थाने विवक्षा अस्ति अतः तु लङ्स्थाने लट्लकार वयम् अहम् एतत् विषये प्रेषितं मया कुत्र कुत्र लकारविषये तीतः अन्ति सीतः त मी वहमः एतत्तु लटी सिद्धप्रत्ययः. लङ्गि चेत् थ थाम् अन् स तं त अं व म एतदेव लङ् अत्र भेदः भवन्ति एव. लट्लकरे तीतः अन्ति अस्ति परन्तु अत्र लङ् लकारे त थ थ थाम् अन् स थं थ अं व म इति अस्ति. अनन्तरम् अत्र अग्रे दृष्टेमे चेत् भूयोः लिट् योगः तिप् अत्र भूयोः लिट् मध्ये किं भवति, सिद्धतिङ् प्रत्ययः लटि लोटि लङ्गि विधिलिङ्गि आत्मनेपदिनः भवति परन्तु अत्र लिट् लकारे स्वीकुर्मः चेत् अत्र एतत् किञ्चित् अत्र भूधातुः स्वीकुर्मः चेत् अत्र किं भवति चेत् बभूव. पूर्वमेव एतत् विषये वयं दृष्टवन्तः लिट् मध्ये बभूव बभूवतुः बभूवुः बभूवितः बभूवतुः वधु बभूवधुः बभूव बभूव बभूविव बभूविम इति अत्र द्वित्वं भवति, लिट्लकारे द्वित्वं भवति. पूर्वमेव वयं दृष्टवन्तः द्वित्वं कुत्र कुत्र भवति इति. अस्तु इदानीम् अग्रे तिङ्कृतयानां सिद्धिः किम् इति पश्येम। अत्र गीता पठतु।
आं भगिनि, पठामि। कुतः भगिनि, कुतः पठितव्यम्?
अत्र
सार्वधातुक तिङ् प्रत्यय अस्तु भगिनि। तिङ् प्रत्ययानां सिद्धिः लाधिकारे अपि च प्रत्ययादेश प्रत्ययादेशे तिङ् प्रत्ययाः सिद्धाः भवन्ति। एभिः सूत्रैः मूलाः तिङ् प्रत्ययाः ये दशानां लकाराणां कृते समानाः विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ् प्रत्ययाः भवन्ति। यथा तिप् लटि ति, लोटि तु तात्, लङ् लङि इत् इत्यादीनां भवति। अतः अत्र पुनः भेदः आयाति।
इदानीमेव वयं दृष्टवन्तः, मया इदानीम् अत्र दर्शितमेव अपि, लट् मध्ये किं भवति, लङ् मध्ये किं भवति, अनन्तरं लोट् मध्ये किं भवति इति। अनन्तरम् अग्रे पठतु भवती एव। सार्वधातुकप्रत्ययाः,
सार्वधातुकप्रत्ययाः, आर्धधातुकप्रत्ययाः च आरम्भे एते सर्वे तिङ् प्रत्ययाः तिङ् षित् षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः। इयं पाणिनेः शैली प्रथमं सर्वे समानाः इति वदति सः तदा अन्यसूत्रेण अपवादः उक्तः येन विद्यन्ते। प्रथमतया सामान्यं दीयते तदा विशेषः। परस्मैपदम् आत्मनेपदम् अपि तथा। सार्वधातुकम् आर्वधातुकम् अपि तथा। अन्यत् उदाहरणं कर्तरि शप् इत्यनेन सर्वेभ्यः धातुभ्यः शप् तदा अपवादत्वेन गणम् अनुसृत्य अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः। दिवादिभ्यः शन्, स्वादिभ्यः श्नु इत्यादयः। एवं
चेत् प्रतिपादयतु किञ्चित् पाणिनीशैली। तिंशित् सार्वधातुकम्, तिंशित् सार्वधातुकं वयं पूर्वमेव दृष्टवन्तः तिङ् मध्ये किं किं भवति इति। तिङ् मध्ये पठतु अत्र।
तिप् तस् जि सिप् तस् त मिप् वस् मस् त आथां झ तास् आथां ध्वम् इट् वहि महिङ् एत् सर्वे तिङ् प्रत्ययाः। षित् प्रत्ययाः विकरणप्रत्ययाः शप् ष्यन् श्नु ष ष्णं ष्णा।
अस्तु, अत्र गणम् अनुसृत्य एव शप् कर्तरि शप् अपि भवति, चुरादिगणीयः अपि शप् भवति। षण् कुत्र भवति? शन् कुत्र भवति? दिवादिभ्यः शन् खलु। अनन्तरं श्नु कुत्र भवति? स्वादिगणीयः धातुः श्नु। श्या कुत्र भवति? तनादिगणीय तदादि तुदादिगणीयः खलु, तुदादि अष्टम न षष्टमगणः एव तुदादिगणः। श्या भवति। स्नं कुत्र भवति? रुदादिगणयः सप्तमगणः रुदादिगणयः स्नं भवति। स्ना कुत्र भवति चेत् त्रयादिगणः नवमगणः। एतत् सर्वाणि तिंशित् सार्वधातुकमेव सूचयति। अनन्तरम् अत्र प्रथमं सर्वे समानाः इति वदति सः। शैली शैली इत्युक्ते तस्य मोडल्, तस्य तस्य कृते एतत् प्रथमसमानाः एव। सर्वत्र समानं भवति, अनन्तरं विशेषणं भवति इति सर्वत्र भवति। सुन्दरः बालकः, अत्र विशेषणपदमस्ति। रामः बालकः, अत्र किमपि कार्यं नास्ति, साधारणतया भवति। परन्तु उन्नतः रामः इत्युक्ते अत्र विशेषणं भवति। तादृशमेव अपवादत्वेन गणम् अनुसृत्य अपवादत्वेन गणम् अनुसृत्य शप् शन् स्नु श स्नम् स्ना इति कार्यं भवन्ति. अतः तत्र कार्यं विद्यते. कर्तृशप् उदाहरणरूपेण कुर्मः चेत् धातुभ्यः शपः भवति. अपवादत्वेन गणम् अनुसृत्य अत्र भिन्नभिन्नरूपेण भवन्ति. किं किं भवति? शप् शन् स्नु श स्नम् स्ना इति भवति. अग्रे पश्येमे चेत् अत्र कर्तृशप् धातुतः शप् प्रत्ययः भवन्ति, कर्तृतः सार्वधातुकप्रत्ययः भवति. परे अस्ति चेदेव अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. एतत् कर्तरि अपि भवितुमर्हति, सार्वधातुकमपि भवितुमर्हति. अनन्तरं विकरणप्रत्यय अनुसृत्य एव अत्र कार्यं भवति. एतत् अत्र अनसूय पठतु. आदिप्रवृत्तिभ्यः अनसूया अस्ति वा? नास्ति चेत् अनन्तलक्ष्मी पठतु.
पठामि.
अनसूया वा? का पठति?
आदिप्रवृत्तिभ्यः शप् द्वितीयाध्याये चतुर्थपादे द्वा
सप्ततिः
सूत्रः शपः लोपः जीवस्यादिभ्यः श्यु शपः लोपः कामन् श्लोकः एव अस्ति. जीवस्यादिभ्यः शुभ श्लु इति अपवादेन भवति. द्वादिभ्यः श्यन् स्वादिभ्यः श्नु सुदादिभ्यः श सुदादिभ्यः श्नम् स्तनादि शृङ्ग्य उ क्रयादिभ्यः श्ना. अत्र अत्र अस्ति महत्वपूर्णो बिन्दुः. सर्वे सिद्धाः अपि प्रत्ययाः सार्वधातुकाः
भवन्ति. एकनिमिषम् एकनिमिषं भगिनि एकनिमिषम्. अत्र आदिप्रवृत्तिभ्यः शपः द्वितीयगण अनुसृत्य अत्र शपः लुक् भवति, लोपः भवति. जुहोत्यादिगणे श्लु अत्र द्वित्वं भवति. दिवादिभ्यः श्यन् इदानीमेव दृष्टवन्तः. स्वादिभ्यः स्नु सुदादिभ्यः शः सुदादिभ्यः श्नं स्तनादिकृङ्भ्यः वुः अष्टमगणः. क्रयादि क्रियादिभ्यः स्ना इति भवति. अग्रे पठतु भगिनि भवती एव.
महत्वपूर्णं बिन्दुः. सर्वे सिद्धाः तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति चेत् तर्हि तत्र सर्वेषु ऋकारेषु कत्तरीषप् इत्यस्य प्रत्यसक्तिः. एवं चेत् गुणभेदः भविष्यति सर्वेषु लकारेषु, परन्तु तथा नास्ति. चतुश्च एव लकारेषु गणीयो भेदः दृश्यते. लपि लोटि लङ्गि पिदिलिङ्ग् च. षट्सु लकारेषु गणीयभेदो नास्ति. लिटि लुटि लृङ्गि लुटि 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 लृङ्गि आशीर्यं च. अतः तथाश्चित् येषां लकाराणां सिद्धप्रत्ययः सार्वधातुकः न स्युः. पाणिनिः येषां लकाराणां सिद्धप्रत्ययानाम् आर्धदात्मकत्वं साधयति मार्गद्वयेन.
मार्गद्वयम् अत्र किं किं भवति भगिनि?
सार्वधातुकलकारः आर्धदात्मकलकारः इति.
अनन्तरं नटि लोटि लङ्गि विधिलिङ्गि इति एकपक्षे अस्ति, एकस्मिन् पक्षे अस्ति खलु. अन्यस्मिन् पक्षे उत्तमम्. एतदपि इतोपि अत्र मातुभिः इतोपि समीचीनतया उक्तम्. अकारान्तदातवः आकारान्तदातवः इकारान्तदातवः ईकारान्तदातवः उकारान्तदातवः अनन्तरम् एजन्तदातवः अनन्तरं शेषः इति भवद्भिः अस्माकं मातृभिः समीचीनतया उक्तम्. एतदपि अग्रे आयान्ति एव. अस्तु, अत्र किमपि क्लेशः नास्ति. गणभेदः भविष्यति इति अत्र इदानीं सार्वधातुकलकाराः आर्धधातुकलकाराः च इति भवति. अन्तलक्ष्मी पठितुं शक्यते वा?
पठिकलम्
पठिङ्गु.
अत्र
अहं पठामि इति वदतु. आम् अहं पठामि इति वदतु.
अहं पठामि, अहं पठामि.
वदतु, वदतु.
अत्र कश्चित् कश्चन सिद्धान्त अवगन्तव्यः धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं
भविष्यति. अत्र धातुना धातुपुरतः अस्ति चेत् अत्र पट् इति धातुः अस्ति चेत् अत्र प्रत्ययः साक्षात् पुरतः दृश्यते एव, पठति. एतदेव प्रत्ययः स्थितः अन्ति इति. तस्य प्रत्ययस्य स्वभाव अनुगुणं कार्यम्. अत्र अग्रे किं प्रत्ययं भवति एतत् अनुसृत्य एव कार्यं भविष्यति. अग्रे
सः प्रत्ययः सार्थधातुकश्चेत् तर्हि कर्तृत्वे कर्तरीप्रयोगे कर्तरी शप् इत्यनेन शप् विकरणप्रत्ययः विहितः.
विहितः अत्र व्याकरणं वदतु.
विहितः वि उपसर्गपूर्वः.
उत्तमं.
हृ धातु वा?
हित एव धातु.
हित धातोः
स्थापत्यं तावदेव. हित स्थापत्यम् अत्र कर्तृशप् इति वयं दृष्टवन्तः. सार्वधातुक अत्र सार्ध नास्ति, सार्व एव. धातु तिङ्प्रत्ययोः मध्ये, धातु तिङ्प्रत्ययोः मध्ये अत्र कर्तृशप् अनन्तरं विकर्णप्रत्ययम् इदानीमेव दृष्टवन्तः. किं भवति अत्र अधिप्रभृतिभ्यः शपः श्लूष्यन् स्नुष्टः स्नम् उः स्न इति भवति. अनन्तरं सः प्रत्ययः
आर्थधातुकेश्च आर्थधातुकश्चेत् तर्हि कर्तरी शप् इत्यस्य प्रसक्तिः नास्ति एव. अपि
आर्धदातकमस्ति चेत् अत्र भिन्नरूपं भवन्ति खलु. अत्र अत्र किञ्चित् नास्ति. अत्र किं भवति तिप् तिङ् इति नास्ति. अत्र स्थितः अति नास्ति आर्धदातक. अतः तत्र कर्तरिषप् इति प्रसक्तिः एव नास्ति. अपि तु इडागमः विचारः विहितः तत्समये आर्धदातकस्येद् विला आर्धदातकस्येत् वलादेः इति एकं सूत्रमस्ति. अतः तत्र आर्धधातुकस्य मध्ये इडागमस्य चिन्तनं भवतु. अतः अस्माकं चिन्तनम् इदानीम् इदं धातोः साक्षात् पुरतः यः प्रत्ययः तिष्ठति पुरतः तस्य एव तस्य स्वभावः कः इति अग्रे पश्येम. इदानीम् अत्र पूर्णिमाप्रकाश पठतु. पूर्णिमाप्रकाश बहु मन्दमस्ति ध्वनिः. अतः स्थगयतु. अन्य कोऽपि पठितुं शक्यते एव किञ्चित्. सीतालक्ष्मी अस्ति वा? सीतालक्ष्मी भगिनी
अस्मि महोदय
दशसु लकारेषु द्रष्टुं शक्यते वा
आम् सः प्रत्ययः दशसु लकारेषु चतुर्णां लकाराणां कृते धातूनां साक्षात् सार्वधातुक तिङ् प्रत्ययः दृश्यते ते च चत्वारः लकाराः के लट् लोट् लङ् विधिलिङ् पुनः स्मर्यतां यत् तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ् प्रत्ययाः सार्वधातुकसञ्ज्ञकाः सन्ति एव अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट् अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एषा एव स्थितिः भविष्यति
अत्र प्रतिपादयतु किञ्चित्
दशलकारेषु चतुर्थ लकारः सार्वधातुक तिंशत् प्रत्यये दृश्यते ते चत्वारलकार किं किं लट् लोट् लङ् विधिलिङ्ग् एते पुनः स्मर्यतां यत् तिंशित् सार्वधातुकम् इत्यनेन अष्टादश तिंशित् प्रत्ययाः सार्वधातुकसञ्ज्ञकाः सन्ति एव अतः प्रत्यय
वयं जानीमः एव अष्टादश नव अत्र चित्तस्थि चित्तस्थ मिपुवस्मस् इति नव अस्ति अनन्तरम् अष्टादश एतत् नव मिलित्वा एव अष्टादश इति भवति अत्र पठतु तार्थं पठतु द्रष्टुं शक्यते ता आतां च तास् आत्थां त्वम् इडु इट् वहिमहि इति अस्ति एतदेव मिलित्वा अषादश इति अस्ति एतत् डिफाल्ट् सिद्धरूपेण भवति एव सामान्यकार्यं प्रत्ययस्य सार्वधातुकत्वम् इति अपि अस्ति इतोपि अत्र कार्यं भवति चेत् लकाराणाम् एव एषा स्थितिः भविष्यति किमर्थम् अत्र स्थितिः भवति व्याकरणविशेषणं वदतु
महोदय अहं
प्रतिपादितुं न शक्नोमि न शक्नोति वा अहं वदामि शृणोतु सावधानतया शृणोतु अतः स्थितिः इति भवति किमर्थं चेत् अत्र एषा इति स्त्रीलिङ्गपदम् अतः एव स्थितिः इति अपि स्त्रीलिङ्गपदम् अस्तु उदाहरणरूपेण लट्लकारः अनिल् महोदय पठतु
आं महोदय उदाहरणं लट् लकारः
मया एकनिमिषम् अग्रिमवर्गे भवान् एव अत्र चालयितुं शक्नोति इति अहं किं भवति अत्र अरविन्दमहोदयेन मया उक्तम् अत्र भवान् अत्र को होस्ट् इति स्वीकृत्य अत्र आरम्भतः किं किं सूत्राणि सन्ति प्रथम मागेश्वराणि सूत्राणि अत्र आदिरन्त्येन सहेत इति आगच्छति चेत् अत्र किञ्चित् क्लेशः नास्ति परन्तु यत्र यत्र आरम्भतः सूत्राणि सन्ति एतत् अष्टाध्यायी उद्घाट्य एतत् दर्शयितुं शक्नोति खलु भवान्
आं महोदय
अस्तु अहं मया उक्तमेव किमर्थं चेत् अत्र अपि बहवः अध्यापकः अत्र किञ्चित् क्लेशः अस्ति बहिः गतवन्तः अतः अन्य कोऽपि एतत् वर्गम् अत्र चालिष्यन्तः किमर्थं चेत् अत्र एतत् विरामकालः न स्वीकरणीयम् इति संस्कृतमध्ये अत्र स्वरूपमहोदयस्य आज्ञा अस्ति अतः किञ्चित् उद्घाटयतु अनन्तरम् अन्य कोऽपि अत्र स्थूलाक्षरैः इदानीं मया अत्र सूचितं खलु अत्र एतदेव स्थूलाक्षरैः किञ्चित् सार्वधातुकं किं भवति चेत् तादृशं भवान् करणीयमेव भवता करणीयं धातुभ्यः विहिताः तिङ् प्रत्ययाः तदा शित् प्रत्ययाः सार्वधातुकः संज्ञकाः भवन्ति अत्र तिङ् किं भवति चेत् तादृशं भवति तिङ् प्रत्ययः अनन्तरं शित् प्रत्ययः किं भवति चेत् तादृशम् अन्य कोऽपि एतत् पाठयतु किं भवति इति समीचीनं वा महोदय?
सूत्राणां सारणी महोदय
भवान् करोतु
महोदय,
समयः अस्ति चेत् अत्र कर्तरि शप् इति भवति, सार्वधातुकमपि इति भवति, पूर्वमेव वयं दृष्टवन्तः अनुदातनित आत्मनेपदमिति भवति, अनन्तरं स्वरितनित कर्तरि अभिप्राये क्रियापले इति भवति, अनन्तरं किं भवति शेषे परस्मैपदिनः इति भवति. एतत् किञ्चित् अत्र गृहपाठरूपेण अत्र करोतु, अत्र स्थापयतु, स्थापयतु नास्ति चेत् अत्र इदानीं पश्यतु अत्र किम् अस्ति. अत्र गच्छतु महोदय, अत्र किं भवति धातुगणाः इति भवति चेत् धातुगणाः अत्र क्लिक् करोतु, अत्र किम् आगच्छति इति पश्यतु. धातुगणाः अत्र सूत्रम् अत्र अस्ति वा इति पश्यतु, अत्र कापि पेस्ट् करोतु, किञ्चिदेव कार्यमस्ति अत्र. अत्र सूत्राणि किमपि नास्ति एव, अतः तत्र अग्रे गच्छतु. धातुगणाः परिचयः अत्र पश्यतु, अत्र किमपि निकरणप्रत्ययं विषये एव अत्र भवति. एतत् स्वीकृत्य गुवादिभ्यः शपः इति भवति, उदादिभ्यः शः, अत्र आकृति अन्ते किं भवति चेत् अकारः एव. एतत् समीचीनतया सर्वे जानन्ति एव इति मिलित्वा पठतु, मिलित्वा पठतु. एतद् गणम् अनुसृत्य मिलित्वा पठतु. अनन्तरं गुणः कुत्र भवति, एतत् स्वरः अस्ति, एतत्
मिलित्वा यदि कोऽपि सारणीं प्रेषयितुं
सहायम् अत्र आम् अनुसया भगिनी अस्ति, अनन्तरम् अत्र किं गीता श्रीधर् अस्ति, अनन्तलक्ष्मी अस्ति. अनन्तलक्ष्मी व्याकरणविषये किञ्चित् जानाति एव, इतोपि सा अपि अस्माकं तेषां कृते भवन्तः कृते साहाय्यं कर्तुं शक्यते एव. अनन्तलक्ष्मी एतत् साहाय्यं करोतु, भवती जानाति एव. अनिल् महोदय अत्र एतत् दर्शयितुं शक्नोति अष्टादेयसूत्रमध्ये अत्र किं किं भवति इति मिलित्वा कार्यं कुर्वन्तु. एकवारं करोतु, यथा सख्यं कुर्वन्तु. अनन्तरं ओन्लि वन् अवर् खलु, चिन्ता मास्तु.
अस्तु,
इदानीम् अत्र किं भवति पठनीयं, तिंशित् सार्वधातुकं समग्रदृष्टिः. अत्र भवान् पठतु अत्र उदाहरणरूपेण.
उदाहरणरूपेण लट् लकारः आप् प्लस् लट् अत्र कर्तरि शप् तदा तत् प्रबाद्य स्वादिभ्यः स्नुः आप् अधिकस्नु अधिकति इस् आप् नु ति आप्नु इति अङ्गम् अधिकं ति सार्वधातुक अर्धधातुकयोः इत्यनेन इतः गुणः आप्नो अधिकति वर्णमेलनेन आप्नोति.
इदानीम् अत्र प्रतिपादितुं शक्नोति खलु?
प्रयत्नं करोमि महोदय.
अत्र किमपि नास्ति एव, अत्र सर्वत्र शप् कुत्र कुत्र भवति, द्वादिगणीयः धातुः भवति, अनन्तरं चुरादिगणीयः भवन्ति, परन्तु अत्र कर्तरि शप् लट् मध्ये किं भवति? अत्र कर्तरि शप् प्रबाद्य अत्र एतत् निष्कासनं भवति, किमर्थं चेत् अत्र आप् इति आप्नोति इति अन्तिमरूपं कुत्र भवति चेत् स्वादिभ्यः श्नु इति एव भवति. श्नु अत्र अस्ति. श्नु शकारः किं सूत्रेण अपगच्छति अन्तलक्ष्मी?
लशक्वदत्तिते.
हा उत्तमं. लशक्वदत्तिते इत्यनेन अपगच्छति. अनन्तरं नु एव तिष्ठति. विना इदानीम् अत्र ऊकारः तिष्ठति खलु अनिल् महोदय? ऊकारः केन सूत्रेण ऊकारः भवति गुणः भवति? अत्र अत्र एव भवति. अत्र एव अन्तिम अग्रे पङ्क्तिः पठतु.
ओके ओके. परन्तु षण्णां लकाराणां
न न न महोदय अत्र पठतु.
किं सूत्रेणातुकयोः इत्यनेन एकः गुणः.
अतः तत्र नु इति अस्ति, उकारः अस्ति.
नो भवति.
ओकारः भवति. ओकारस्य स्थाने ओकारः. अतः तत्र आप्नो इति भवति. अनन्तरं तिप् अस्ति इति भवति. तिप् मेलनेन अत्र विवक्षा किं भवति चेत् प्रथमपुरुष एकवचनमेव, अतः विवक्षा ति भवति. इदानीम् अत्र प्रथमपुरुष द्विवचनं भवति चेत् किं भवति? कोऽपि
द्विवचने उत्तमम्
उत्तमं. परन्तु आप्नं स्वीकृत्य वदतु.
ओ अस्तु महोदय, अहं प्रयत्नं करोमि.
अन्य कोऽपि अपि द्विवचनं द्विवचनं
आप्नुतः
आप्नुतः. अतः तत्र इदानीम् अत्र विवक्षा किं भवति चेत् प्रथमपुरुषे एकवचनम्, अतः एव ति अत्र अस्ति. आप्नो योगः ति वर्णमेलनेन आप्नोति इति भवति. भवानेव अग्रे पठतु अनिल् महोदय.
परन्तु षण्णां लकाराणाम् आर्धधातुकत्वं वर्तते.
एकनिमिषम्, अग्रे अग्रिमवर्गे भवान् अत्र दर्शयितुं शक्नोति एतत् सूत्राणि मिलित्वा करोतु. अनन्तरम् अत्र किं भवति, ध्वनिमुद्राणि अपि भवान् प्रेषितम् अग्रिमवर्गे अरविन्दमहोदयेन प्रेषितं भवति. अहमपि एतत् शृणोमि. अत्र किं किं दोषाः भवन्ति इति अहं स्वीकृत्य, किं किं दोषाः इति अहं टिप्पणीं स्वीकृत्य अनन्तरम् अग्रिमवर्गे मे मासम् अहं मासे अहं किं किम् अत्र दोषाः सन्ति इति. किमर्थं चेत् एतत् मिलित्वा मिलित्वा छात्रैः मिलित्वा अत्र करणीयमेव. अतः अनन्तरमेव किञ्चित् कालानन्तरं भवान् एतत् विषये अध्यापकः भवितुम् अर्हन्ति. एतत् समीचीनतया चिन्तनमेव स्वरूप महोदयस्य. अतः मिलित्वा करोतु. अत्र किं किं दोषाः इति अहं एतत् विषये अहं शृणोमि एव. अस्तु पठतु महोदय. परन्तु षण्णानां लकाराणां षण्णां लकाराणाम् अत्र विभक्ति किं, वचनं किं, कोऽपि
द्वितीय
षष्टि बहुवचनं तावदेव. अत्र षण्णां लकाराणां किं किं महोदय, अनिल् महोदय?
षण्णाम् अत्र अस्ति लट् लोट् लङ्
उत्तमम् उत्तमं. लट् लोट् लङ् विधिलिङ्ग् विहाय उत्तमम्. अत्र किं किं भवति षण्णां?
सो इति लिटि लृटि लृङ्गि लुटि लुङ्गि आसीत् लिङ्गि.
उत्तमम्.
लिट् लुट् लिट् लृङ् लुटि आम्
आम् अस्तु. एतदेव अत्र षण्णाम् इति अर्थमस्ति. अत्र षण्णां लकाराणाम् आर्धधातुकत्वं वर्तते इत्युक्तौ
कर्त्रर्थे अपि शप् विकरणप्रत्ययः नैव विहितः। एतत् कथं सम्भवति? कथम् एतादृशी स्थितिः निष्पद्यते? पाणिनिः एषां सन्नां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन।
मार्गद्वयं किं भवति? सार्वधातुकलकाराः आर्धधातुकलकाराः इति मार्गं द्वयं भवति। लट् लोट् लङ् विधिलिङ्ग् एतत् विहाय इदानीमेव भवता उक्तम्। एतत् विहाय यत् षट् भवन्ति एतदेव मार्गद्वयं भवति। द्वयोः लकारयोः कृते लिट् च आशुलिं च पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विददाति। साक्षात् अत्र किं किं भवति इति पश्यामि। इदानीम् अत्र
द्वयोः लकारयोः कृते लिट् च आशीर्लिङ्ग् च पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विदधाति। साक्षात् तिंशित् सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ्गाशिशि।
अत्र तिंशित् सार्वधातुकं पृथक्तया आगच्छति। अत्र अष्टादश प्रत्ययाः सन्ति। आर्धधातुकं शेषः लट् लोट् लङ् विधिलिङ्ग् विहाय आर्धधातुकं शेषकं लिट् च लिट् अत्र द्वित्वं भवति। लिङ्गाशिशि विधिलिङ्ग् अनन्तरम् आशीर्लिङ्ग्। अत्र चत्वारः पृथक्तया विद्यन्ते। इदानीम् अनुसूय पठन्तु पठतु। न न इदानीमेव अभवत्। येषां सूत्राणां
सूत्रसङ्ख्या पश्यन्तु क्रमेण सर्वाणि। अतः अनुरतिः सरला तिंशित् सार्वधातुकम् इत्यनेन सर्वे तिंशित् प्रत्ययाः षित् प्रत्ययाः च सार्वधातुकाः आर्धधातुकं शेषः वक्ति यत् ये प्रत्ययाः धातुभ्यः विहिताः तिंशित् भिन्नाः ते सर्वे आर्धधातुकाः। तदा लिट् च इत्यनेन पाणिनिः वदति यत् लिट् तिङ् प्रत्ययाः यद्यपि तिङ् तिङ् परन्तु तेऽपि आर्धधातुकाः। लिङ्गाशिशि इत्यनेन आशीर्लिङ्ग् अष्टादश तिङ् प्रत्यया अपि तथैव साक्षात् अपवादत्वेन आर्धधातुकाः भवन्ति।
अत्र इदानीं तिंशित् सार्वधातुकम् अत्र पश्यतु तृतीय अध्याये चतुर्थपादे त्रयोदशाधिकम् एकशतम्। एतत् चतुर्दशाधिकम् एकशतम्। पञ्चदशाधिकम् एकशतम्। षोडशाधिकम् एकशतम्। अत्र तिंशित् सार्वधातुकम् अत्र सर्वे तिङ् प्रत्ययाः षित् प्रत्ययाः अत्र सार्वधातुकाः। परन्तु आर्धधातुकं शेषः इति स्वीकुर्मः चेत् लिट् एतदपि आर्धधातुकम्। अनन्तरं लिङ्गाशिशि एतदपि आर्धधातुकम्। किं प्रबाद्य अत्र आर्धधातुकं भवन्ति? विकर्णप्रत्ययं शप् प्रबाद्य अत्र आर्धधातुकं सर्वत्र भवन्ति एव। अनन्तरं पूर्णिमा पठतु
महोदय।
प्रश्नः इदानीम् अस्ति चेत् पृच्छन्तु।
आं महोदय, तत् आर्धधातुकं शेषपर्यन्तं तु अहम् अवगतं। तिंशित् प्रत्ययः सार्वधातुकम् अस्ति, अन्यप्रत्ययः आर्धधातुकम् अस्ति, परन्तु अत्र लिट् च लिङ्गाशिशि च कः वदति महोदय?
एतदपि लिट् च लिट् द्वित्वं भवति खलु, अत्र कार्यं भिन्नं भवति। लिट् भवति चेत् कार्यं भिन्नं भवति खलु। अत्र कर्तरि शब् प्रपाद्य एव कार्यं लिट् मध्ये भवति। तादृशमप लिङ्गाशिशि लिङ्ग् विधिलिङ्ग् भवति, आशुलिङ्ग् भवति। अत्र अपि तिप् तस् जि एतत् अष्टादश प्रत्ययाः सन्ति खलु, एतत् कार्यं न कुर्वन्ति। प्रपाद्य एव अन्यकार्यं भवन्ति। अत्र स्या इति स्वीकुर्मः, विधिलिङ्ग् मध्ये अत्र तु तात् अस्ति, अत्रापि भिन्नं भिन्नरूपेण भिद्यन्ते एव प्रत्ययः, अतः तत्र आर्धधातुकः इति भवन्ति।
केवलं त्रीणि लकारः भिन्नः अस्ति वा?
आशीर्लिङ्ग् विधिलिङ्ग् आशीर्लिङ्ग् अनन्तरं लिट् तत्र एतत् प्रपाद्य शप् कर्तरि शप् प्रभाद्य अत्र कार्यं करोति. आददातुकः लिट् लुट् लृट्. अनन्तरं तत्र एतत् प्रभाद्य एव लकाराणां प्रत्ययः प्रभाद्य किं प्रभाद्य कर्तरिषप् प्रभाद्य विकरणप्रत्ययमपि प्रभाद्य अत्र लट् लोट् लङ् विधिलिङ्ग् मध्ये अत्र लट् लोट् सार्वधातुकप्रत्ययः परन्तु विधिलिङ्ग् अनन्तरम् आशीर्लिङ्ग् लिट् च एतद् लिट् सर्वत्र अत्र आर्धधातुकप्रत्ययाः कार्यमेव करन्ति करोति कुर्वन्ति. अस्तु आर्धधातुक स्टिब्ड् भिन्नम् अस्तु. इतोपि प्रश्नः सन्ति वा अन्य कोऽपि? अर्धधातुकमस्ति चेत् अत्र सर्वत्र आर्धधातुकस्य बलादेः इति इडागमस्य चिन्तनं भवति. अतः एव पठितुम् इति ईकारः श्रूयते. पठितुं पठनीयम् अत्र ईकारः न श्रूयते. आर्धधातुकप्रत्ययम् अत्र यत्र आर्धधातुकं सार्वधातुकमस्ति सार्वधातुकमध्ये इडागमस्य चिन्तनं नास्ति. आर्धधातुकमस्ति चेत् अत्र इडागमस्य चिन्तनं भवति. भवान् एव पठतु.
चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोः मध्ये अन्यप्रत्ययः विहितः भवति यः स्वयम् आर्धधातुकः.
इत्यनयोः अत्र किं भवति सन्धि?
इति प्लस् अनयोः मध्ये प्लस् मध्ये सो इति
इति अनयोः इति अनयोर् इति भवति खलु इति अनयोर्
विसर्गस्य रेफ.
उत्तमं. सूत्रं वाटसूत्रं किं भवति? वाटसूत्रं जानाति वा?
न महोदय.
अत्र अनन्तलक्ष्मी वाट्साप् मध्ये अस्ति खलु त्वम्? अन्तलक्ष्मी अस्ति वा? मया प्रेषितं खलु. अहमस्मि, वदतु.
अहमस्मि.
अस्तु, अत्र बाटसूत्राणि ग्रूप् मध्ये प्रेषयतु. प्रेषितुं शक्नोति खलु? अस्ति खलु भवत्याः समीपे?
एकनिमिषं.
ग्रूप् मध्ये प्रेषयतु. अस्तु, अत्र सूत्रं भवान् जानाति वा अनिल् महोदय?
का सूत्रं महोदय?
इतः परस्य विसर्जनीयस्य रेपः अकरी सर्वर्णः नास्ति चेत् इति अनयोर् इति भवति. अत्र रेपः विसर्गस्य स्थाने रेपः भवति. अतः सूत्रमस्ति इचः परस्य विसर्जनीयस्य रेपः अकरि इति भवति. सा प्रेषितवती, प्रेषयिष्यति. अत्र पश्यतु अग्रे. अनन्तरं पठतु.
शतासि लृ लुटो लुटोः तृतीयाध्याय प्रथमपादे त्रयत्रिंशत् श्लोकः. लिटि लृङि च परे धातुतः स्यः लुटि परे धातुतः तासि भवति. अनुवृत्तिसहितसूत्रं ऋलुटोः धातोः परश्च शतासि प्रत्ययौ लृट् लृङ् शः स्य लुट् तास्.
एतत् अत्र स्य तासि इति द्विवचनम्. अतः एव अत्र प्रत्ययौ इति अपि द्विवचनम्. अत्र लृट् लृङ् मध्ये स्य अस्ति. लृट् भविष्यति, स्य भविष्य, अतः स्य लृङ् मध्ये लृङ् मध्ये भूधातुः स्वीकुर्मः चेत् अत्र
भविष्यत्
लृट्. इदानीं लुक् पश्यामः चेत् भवितासि तास् भवति खलु. भविता भवितारौ, भवितासि तास् इति भवति. अनन्तरं लृट् मध्ये भविष्यति इति भवति. लोट् मध्ये किमपि नास्ति. लङ् मध्ये किमपि नास्ति. अनन्तरम् आशे लुङ् मध्ये किं भवति अत्र? लृङ् खलु, लृङ्ग्
अभविष्यत्
मध्ये
अभविष्यत् महोदय
अभविष्यत् अभविष्यत् कण्डिशनल् मोड् इफ्
आम्
इफ् मोड् अभविष्यत् यदा वृष्टिः समये अभविष्यत् सस्यानि सन्ति यदा वृष्टिः समये अभविष्यत् इफ् रेन् कम्स् इन् टैम् समये भवति चेत् सस्यानि धान्यानि वृद्धिः भवन्ति इति अभविष्यत् कण्डिशनल् मोड् कण्डिशनल् मोड् अतः तत्र स्या स्या इति भवन्ति अनन्तरं लुट् मध्ये किं भवति
तास्
तास् भविताः भविता भवितारौ भवितारः भवितासि इति तास् स्वीकुर्मः अत्र अग्रे अनुसय पठतु
तृतीयाध्याये प्रथमपादे त्रयचतुर्विंशतिसूत्रेण नूरि धातोः लि प्रत्ययः परश्च लू लि एम्
लुङ् लुङ् अस्ति चेत् स्लि इति भवति लुङ् विधिलिङ्ग् लङ् लोट् लृट् लुट् लिट् लट् अत्र लुङ् लृट् लोट् लङ् विधिलिङ्ग् आशीर्लिङ्ग् लुङ् लकारे अभूत् अभूत् अत्र प्रथमं जलां जशवन्ते भवति अनन्तरम् अत्र अभूत् इति भवति करिच इत्यनेन चत्वं भूत्वा अतः रूपं द्वयं भवति अत्र किं दत्तं स्लि इति प्रत्ययं भवति स्लि स्लि लुङ्गि इति सूत्रमस्ति अतः अनन्तरम् अग्रिमसूत्रमस्ति च्लेः स्विच् भवति अतः तत् स्थाने च्लि स्थाने स्विच् अनन्तरं गते गुपाभूप्यः स्विचः परस्मैपदेषु अत्र एतत् सूत्रं 2477 किं भवति चेत् अत्र तादृशमेव करणीयं महोदय अग्रिमवर्गे नम्बर् स्थापयतु अनन्तरं साधारणतया अत्र सूत्रम् आगच्छति एव क्लिक् करोतु एतत् सर्वं जानन्ति एव खलु सर्वे अनिल्महोदय जानाति खलु अत्र गतिस्था गुफा भूप्यव भूप्यः स्थितः परस्मे पदेषु गा इति भवति गायति गा स्था स्थास्यति पा पिबति भू एतेभ्यः परस्य तथा भूसञ्जकधातुभ्यः भूसञ्जकः गोदाप् इति भवति तत्र दा धान् धा एतत् सर्वाणि भवन्ति भूसञ्जकः धातुभ्यः परस्य सिच् विकर्णस्य तत्र सिच् इति एव विकर्णप्रत्ययं भवन्ति सिच् कर्तरिषप् प्रभाद्य एव तत् भवन्ति सिच् विकर्णस्य परस्मैपदस्य प्रत्यये परे लुक् भवति अत्र एतत् अग्रे आयन्ति एव किञ्चित् क्लेशः नास्ति अत्र लुङ् मध्ये स्लि इति भवति देयं यत् पठतु
देयं यस्य तासु इति एते त्रयः प्रत्ययाः न तिङ्गा न तु न वा शित् अतः तिंशित् सार्वधातुकम् इत्यनेन नैव सार्वधातुकाः शेषः इत्यनेन आर्धधातुकाः भवन्ति
अत्र किञ्चित् क्लेशः अस्ति वा प्रतिपादयतु कृपया किमपि नास्ति एव अत्र अत्र देयं यत्
एते त्रयः प्रत्ययाः तिङ्प्रत्ययः नास्ति न अपि षित् प्रत्ययः अतः किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकः न भवितुं शक्यते, अपि तु आर्धातुकं शेष्य इत्यनेन आर्धातुकाः भवन्ति. सम्यक् वा?
हा तावदेव. अग्रे पूर्णिमप्रकाश पठितुं शक्यते वा? पूर्णिमप्रकाश, सीतालक्ष्मी.
आम् यथा लुट् लकार लुट् लकारः ऋट् लकारः आप् कम लुट् आप् लु स्यतासि लुटोः इत्यनेन लुटि परे धातव धातु धातुतः स्यः आप् योग स्य प्लस् ल् धातोः परः स्या प्रत्ययः आर्धधातुकः अतः कर्तरि शप् स्वादिभ्यः श्रु इत्यनयोः प्रसक्तिर्नास्ति. आप् अधिकं स्या अधिकं ल् प्रथमपुरुषैकवचने तिबादेशः. आप् अधिकं स्या अधिकं तिप् अनुबन्धलोपे आप् अधिकं स्या अधिकं ति वर्णमेलने आप्स्यति.
अत्र लृट् लृट् लकारमध्ये किं सूत्रेण कार्यं करोति, भविष्यति, गमिष्यामि, तादृशं भवति चेत् अत्र स्या स्या श्रूयते. एतत् स्या किं सूत्रेण चेत् स्यतासि लृ लुटोः लृ लृट् लुट् तन्मध्ये स्यास्य श्रूयते. उदाहरणरूपेण एतत् स्वादिभ्यः स्नु इत्यनेन एव अत्र कार्यं भवति, अतः आपयोगः स्या भवति. एतत् किं प्रबाद्य स्वादिभ्यः स्नु भवति, भवतेव वदतु किं प्रबाद्य अन्य कोऽपि उत्तमं कर्तरिषप् प्रबाद्य एव सर्वत्र आर्धधातुकमध्ये कर्तरिषप् प्रबाद्य एव अन्यसूत्रं कार्यं करोति. किं किम् इदानीमेव दृष्टवन्तः. जुहोत्यादिभ्यः श्लुः, अधिप्रभृतिभ्यः शपः, दिवादिभ्यः श्यन्, स्वादिभ्यः स्नुः, तुदादिभ्यः शः. एतत् सर्वाणि विकरणप्रत्ययं किं बाधित्वा आगच्छति? कर्तरिषप् प्रबाद्य एव. कर्तरिषप् प्रबाद्य अकारः नास्ति, अकारः शप् मध्ये अकारः एव तिष्ठति अन्ते. एतत् प्रबाद्य सर्वत्र एतत् एव श्रूयते आर्धधातुकप्रत्ययम्. इदानीमत्र किं भवति, स्यतासि रुलुटोः एतदेव अत्र कार्यं भवति. स्यतासि किं प्रबाद्य, शप् कर्तरि शप् प्रबाद्य स्यतासि रुलुटोः इति कार्यं करोति, अतः आप् योगः स्या योगः तिप् अनन्तरम् अनुबन्धलोपानन्तरं वर्णमेलनेन आप्स्यति इति भवति. इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा? प्रश्नः अस्ति चेत् पृच्छतु. अनिल् महोदय, प्रश्नः अस्ति वा? अन्तलक्ष्मी, प्रश्नः अस्ति वा? अन्तलक्ष्मी प्रेषितं वा वाट्सप् द्वारा?
ஏறிருக்கேன் உங்களுக்கு அனுப்பி
हलो
अहं वदामि अहं वदामि
हलो
என்னோட வாட்ஸ்அப் காமிச்சிருக்கீங்களா நீங்க
ஆமா
அதுல நீங்க கிளாஸ்ல ஒரு ஏக நிமிஷம் அந்த இது நான் இப்ப அனுப்புறேனே அதுல நீங்க இல்ல
சுயத்தே மகோதய
வாட்ஸ்அப் குரூப்
अहं अहं प्रेषयिष्यामि अस्तु अत्र इदानीम् अनिल्महोदयेन गतम् अत्र अस्तु अनिल्महोदय पठतु अत्र एवं कृत्वा इतःपर्यन्तं कोऽपि संशयः अस्ति वा संशयः अस्ति वा नास्ति चेत् अग्रे गच्छन्तु एवं कृत्वा अनिल् महोदय पठतु अन्तलक्ष्मी पठतु एवं कृत्वा
एवं कृत्वा लिट् लिङ् लुट् लुङ् तेषां लकाराणां तिङ् प्रत्ययाः यद्यपि सार्वधातुकाः किन्तु
यद्यपि किं यद्यपि किम् अत्र सन्धिकार्यं
यन्सन्धि
यन्सन्धि सूत्रम्
इकोयनाति
उत्तमं किन्तु
किन्तु धातु तिङ् प्रत्ययोः मध्ये अन्यः प्रत्ययः उपविशति यः स्वयम् आर्थधातुकः यतः पाणिनेः कार्यपद्या सर्वकार्यं साक्षात् पूर्वं सर्वं कार्यं साक्षात् पूर्वं परं च भवति अपि यतः एते सार्वधातुक तिङ् प्रत्ययाः अधुना धातुना साक्षात् नैव ध्यन्ते अतः सार्वधातुकप्रत्यय निमित्तकम् अङ्गार्यम् अङ्गकार्यं नार्हं नाम कर्तरी शप् इत्यनेन शप् प्रत्ययः ज्ञानीयते
न आनीयते
न आनीयते तस्य स्थाने
किं सन्धिः अत्र
सवर्णदीर्घसन्धि
सूत्रम्
अकः सवर्णे दीर्घः
उत्तमम् अग्रे
तस्य स्थाने आर्थधातुकप्रत्ययनिमित्तकम्
अङ्गकार्यं विहितम्
नाम
इदाहमस्य विचारम् इदानीमेव मया उक्तम् अत्र सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्गं भवति शेषः षड् लकाराः अर्धधातुकलकाराः भवन्ति यत्र एतत् सर्वाणि सार्वधातुकं कर्तरिषप् इति एतत् प्रभाद्य एव अर्धधातुकस्य स्या स्नु स्ना तादृशं भवन्ति अत्र आर्धधातुकप्रत्ययः निमित्तिकम् अङ्गकार्यं निमित्तम् अत्र विहितं भवति. तत्र आर्धदासिकस्य बलादेः इति सूत्रमस्ति, अथवा तत्र ईडागमस्य चिन्तनं भवति. पठितुं शक्यते, पठनार्थं तत्र ईडागमस्य चिन्तनं नास्ति. पठितुम् अत्र ईडागमस्य चिन्तनं भवति. अनन्तरं यत्र इकारः श्रूयते ईडागमस्य चिन्तनं भवति आर्धदातकलकारस्य. इदानीं कार्यं साक्षात् पूर्वं परं भवति इति किं, पूर्वमपि कार्यं भवति परमपि कार्यं भवति. अत्र एतत् विषये किञ्चित् इतोपि अग्रे पठनीयमेव. अस्तु, इतपर्यन्तं किञ्चित् प्रश्नः अस्ति चेत् पृच्छन्तु, नास्ति चेत् अन्तिमश्लोकं वदतु भवती एव अन्तलक्ष्मी.
ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विना अधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. धन्यवादः गुरुजी.
धन्यवादः. सर्वेभ्यः नमस्कारः. धन्यवादः. शुभदिनम्.